नतिरभ्यनूषदव्रा विभूपदरुणीर्यशसागो मे सत्तमोदितम् रोच दद्यौरुद्देव्यामुषसो भानुरत्त आसूर्यो बृहदस्तिष्ठतज्राजुमत्येषु पृथिना च पश्यन् आदित्पश्चाभूभूधानाव्यक्षन्नादिद्रत्नम् धारयन् दद्युभक्तम् विश्वे विश्वासु दुर्यासु देवामित्रधियेव ऋणसत्यमस्तु अच्छावोचयसु सुचानमग्निम् होतारम् विश्वभारसंविष्टम् सुच्यूधो अदृढन्नगवामन्धो न भूतम् परिषिक्तमंसोः विश्वेषापतेर्यज्ञानाम् विश्वेषापते धर्मानुषाणाम् अग्निर्देवानाम वा आवृणानस्सु मृळीको भवतु जातवेदाः यो मत्येष्वमृतरता वा देवो देवेष्वरतिर्निधायि होतायुजुष्टो मह्नासु चध्यै हव्यैरग्निर्मनुषयैरयध्यै इह त्वम् सोनो सहसो नो अद्य जातो जाताम् उभयान्तरग्ने दूतयेयदेयुजानरश्वरजमुष्कान्वृषाणः शुक्रांश्च अद्यावृषस्नो रोहिता घृतस्नोऽस्य मन्ये मनसा युविष्टा अन्तरीयसे अरुषायु जानो युष्मांश्च देवान्विषाचमर्तान् अर्यमनम् वरुणम् मित्रमेषामिन्द्राविष्णो मरुतो अश्विनोत स्वस्मो अग्ने सुरथः सुराधाये दूवः सुभविषे जनाय गोमाङ्ग्नेरीमाङ्गश्वीयज्ञो नृपः स खासदमिद प्रभृष्यः ेषो असुरप्रजावान् दीर्घोरयः पृथुपुत्रः स्वभावान् यस्त जिध्वम् जभरस्विष्मिदानो मूर्धानम् वा ततपते त्वाया भुवस्तस्य स्वत वा वायुरग्ने विश्वस्मात्सेमघायत ऊरुष्य यस्ते भरादन्नीयते चिदन्नम् निशिषम् मन्द्रमतिथिमुदीरत् आदेवयुरिणधते दुरोणे तस्मिन् रजध्रुवो अस्तु दास्वान् यस्त्वा दोषाय उषसि प्रशंसाद्विजम् वा त्वा कृणपते हविष्मान् अश्वो न स्वेदमाहेम्या वान्तमम् हसप्येवरोदास्वांसम् यस्तुभ्यमग्ने अमृता सद्वस्ते गृणपते यतश्रूक् न स राजा स समानो योषन्नैनवम् हः परिवरदघायोः यस्य त्वमग्ने अध्वरम् जुजोषो देवो मत्तस्य सुधीतम् रराणः प्रीतेत सद्धोत्रादविष्टासायस्य विधतो वृधासाः चित्तिव चित्तिम् च न बद्धि विद्वान् पृष्ठेव भीतावृजिना चमर्तान् राजे च न स्वपत्याय देवदितिम् चरास्वादितिमुरुष्य कविम् सहसासुः कवयो दग्धानि धारयम् तो दुर्यास्वायोः अतस्त्वम् दृश्याङ्ग्नजेतान् बद्भिः पश्येरद्भूताम् अर्यजेवैः त्वमग्ने बाघते सुप्रणीतिः सुतसो मायविधते यविष्ठ रत्नम् भरस समानाय घृष्व पृथश्चन्द्रमवासे दर्षणि प्राह अधाभयद्वजमग्ने त्वाया बद्भिर्हस्तेभिश्च कृपातनुभिः कथम् न क्रन्दो अपसा भुरुजो ऋतम् येव शुद्ध्याशुराणाः अथा मातुरुषसः सप्त विप्राजाये महि प्रथमावेधसो नृपस्पुत्र अङ्गीरसो भवे माद्रिम् मृतेम धनिनम् सुचन्दाः अथायजानः पितरः परासः प्रत्नासो अग्नृतमाशुषाणाः सुचीतयन्दीधीतिमुक्थसा सहा क्षमाभिन्दन्तो अरुणीरपव्रन् सुकर्माणः सुरुचो देवयन्तो योनदेवाजनीवाधवन्तः सुजन्तो अग्निम् वृधन्त इन्द्रमूर्वङ्गव्यम् परिषदन्तो अग्मन् आयुधेव क्षुमति पश्वो अख्यद्देवानाम् यज्जनिमाञ्चुग्र मर्तानाम् च दुर्वशीरगृभ्रन् वृधे चेदर्यमुपरस्यायोः अकर्मते स्वपासो अभूमृतमवस्रन्नुषसो विभातिः अनो नमग्निम् पूरुधासुश्चन्द्रम् देवस्य मर्मे च तश्चारुचक्षुः एताते अग्नौ चथानि देधो वोचामकपजेताजूषस्व उच्छोचस्व गृणेवस्य सो नो महो राजः पूर्वारप्रयन्धि आभो राजानमध्वरस्य रुद्रम् होतारम् सत्ययजम् रोदस्योः अग्निम् पुरातन यत्नो रचित्ताद्धिरण्यरूपमपासे कृणध्वान् अजम् योनिश्च कृमायम् भयम् ते जाजेव पत्य उशति सुपासाः सर्वाधीनः परिवेदो निषीते मावूते स्वपाकप्रतीचीः आशृण्वते अद्रेपिता यमन्न ऋचक्षसे सुमृळीकाय वेधः देवाय स्वस्ति ममृताय संसग्रावे वसोता मधुषद्य मीडे समुञ्चिन्नः संया अग्ने अस्य ऋतस्य बोद्धृतजस्वाधीः कदा उत्थास धनाद्यानि कदा भवन्ति सख्या गृहेते कथा हतद्वरुणाय त्वमग्ने कथा दिवे गर्हसे कन्न आगाः मित्राय मीरुषे पृथिव्यै ब्रह्मकर्जम्ने कद्भगाय कद्धिष्ण्या सुवृधसानो अग्ने कद्वाताय प्रतापसे सुभये पर्यज्वनेना सत्यायक्षे ब्रह्मकदग्ने रुद्राय मृघ्ने कथा महे पुष्टिम् भराय पूष्णे कद्रुद्राय सुमघाय हविर्दे तद्विष्णवमुरुगाय जरेतो ब्रह्मकदग्ने शरवे बृहत्यै कथा सर्धाय मरुतामृताय कथा सूरे बृहते पृच्छमानः प्रतिभ्रमोदीतये दुराय साधादिवो जातवेदस्ति कित्वान् ऋतेन ऋतम् निजातमीढ आगो रामा स च मधुमत्पक्वमग्ने कृष्णा सतीरुसदाधासि नैषाजामर्येण पजासा पीपाय ऋतेन हिष्माः वृषभश्चे दत्तः पुमान् अग्निः पजासा वृष्टेन अस्मन्दमानो अचरद्वजोधा वृषाः शुक्रम् दुदुहेरुधाः ऋतेनाद्यम् च सन्भिदन्तः समङ्गीरसो नमन्तकोभिः सुनन्दनः परिषदन्नुषा स मा विश्वरभवज्जाते अग्नौ ऋतेन देवीरमृता अमृता अर्णोभिरापो मधुमद्भिरग्ने वाजीन सर्गेषु प्रस्तु भानप्रसदमित्रवेदवेदधन्युः मागस्य यक्षम् सदमिद्धुरो गामा वेशस्य प्रमिनतो मापेः मा भ्रातुरग्ने अनृजोर्भृणम् वेर्मा सख्यर्दक्षम् रिपोर्भूजेम रक्षाणो अग्ने तव रक्षणे भीरारक्षाणः सुमघप्रीणानः प्रतिस्फुरविरुजबीढ्वम् भो जहि रक्षो महे चिद्वावृधानम् येभिर्भवसुमनाः अग्ने अर्कैरिमान्स्मृसमन्नाभिः सूरवाजान् उत ब्रह्माण्यङ्गिरोजुषस्वसन्ते सस्तिर्देववाताजनेत येता विश्वा विदुषे तुभ्यम् वेधो नीचान्यग्ने निन्यावचांसि निवचना कवजेताव्यान्यसंसिषम् वतिभिर्विप्रभुक्तैः कृणश्वपादः प्रसीदिम् न पृथ्वीम् याहि राजेवामवाङ्गिभेन निष्वेमनः प्रसीदिन्द्रूणानोऽस्तासि विद्यारक्षसस्तपिष्टैः तव भ्रमास आशुजापादन्त्यन स्पृशधृषतासोऽसूचानः तपूंशग्ने जिह्वापदङ्गानसंदितो विसृज विश्वागुल्काः प्रतिष्पसो विसृजतोर्नीतमो भवा पायुर्विशो अस्य अदब्धः यो नो दूरे अघसं सोऽयो अन्यग्नेमाकिष्टेम्यधिरादधर्षीत् उदग्ने तिष्ठ प्रत्यादरश्वन्या अमित्राङ्गोषधात्तिग्महेते यो नो अरादिम् समिधानचक्रे नीचादन्धक्षदसम् न शुष्कम् ऊर्ध्वभप्रतिविद्याध्यस्मदाविष्क्रेणुष्वदेव्यान्यग्ने अवस्थिरतनिहियादजूनाम् जामिमजामिम् प्रवृणीहि शत्रून् स ते जानादिसुमतिम् यविष्ठज जीव ते ब्रह्मणे गातुमैरत् विश्वान्यस्मै सुदिनानि राजोद्युम्नान्यर्यो विदुरो अभिद्यौत् सेदग्ने अस्तु सुभगः सुदानुर्यस्त्वा नित्येन हविषाय मुक्तैः त्रिप्रेषदिष्व आयुषिदुरोणे विश्वे तस्मै सुदिनासा स दृष्टिः अर्चामिते सुमतिम् घोष्यर्वाक्सन्ते मापाताजरतामियङ्गीः स्वस्वा स्वासुरथा मज्जये मास्मे क्षत्राणि धारयेरनुद्यून् इह त्वाभूर्याचारे तु पद्मम् दोषामस्तर्जि जिवाम् समनुद्यून् क्रीडन्तस्त्वा सुमनसः सभे माभिद्युम्नातस्थिमाम् सोजनानाम् यस्त्वा स्वस्वस्व हिरण्यो अग्नमुपजादिवसुमता रथेन तस्य त्राता भवसि तस्य सखा यस्त आदित्यमानुषग्जुजोषत् महोरुजामि बन्धुता वचोभिस्तन्मा वितुर्गोत माधन्वीयाय त्वन्नो अस्य वचसश्चिकिद्धि होतर्यविष्ठशुक्रतोदमूनाः अश्वप्रजस्तरणाय सुसेवातम् द्रासो मृकाश्रमिष्ठाः ते पादवः सध्यम् च निषज्याग्नेतव नः पान्तमूर ये वायवो मामतेयम् ते अग्ने पश्यन्तो अन्धम् तु निरादरक्षन् रक्षतान् सुकृतो हे दारित्सम् दयद्रिभवो नाः देवो त्वया वयम् स धन्या सोदास्तव प्रणीत्यस्यामवाजान् उभाशंसा सूजयते रक्षजाग्रेणस्य ह्रयान अजाते अग्ने समिधा विधेम प्रतिस्तोमम् सस्यमानम् गृभाय दहाससो रक्षसः पार्यास्मान्द्रुहो निरो मित्रमहो अभद्यात् भद्रन्नो अपि वादयमनाः हरिः ओ वैश्वानराय वीरुषे सजोषाः कथा दासे माग्ने बृहद्भाः अनूनेन बृहतामक्षसेनोपस्तभायदुपविन्नरोधाः माणिम् ददय इमाम् मह्यम् राजिम् देवो ददौ मत्याय स्वधावान् आकाशकृत्सो अमृतो विचेता वैश्वानरो मृतमो जह्वो अग्निः सामद्युवर्गामहि जिग्मभृष्टिः सहस्रवेता वृषभस्तु विष्मान् पदम् न गौरपगूढम् विविद्वानग्निर्मह्यम् प्रेदु गोचन्मनीषा अग्निर्भवसद्दिग्भजम् भस्तविष्टेन शोचिषाय सुराधाः प्रिये विनन्दि वरुणस्य धाम प्रिया मित्रस्य चेततो ध्रुवाणि अभ्रातरो न जोषाणोऽव्यन्तः पतिरिपो न जनयो दुरेवाः पापा सन्तो अनृताः सत्यायिकम् पदमजनता गभीरम् इदम् मे अग्ने कियते पापकामीरते गुरुभारम् नमन् बृहद्दधृषदा गभीरम् यत्त्वम् पृष्टम् प्रजा सा सप्तधातु तमिन्वे एव स मनासा मानमभिकृत्वा पुनतीधीरस्याः मन्नधिकारुपृष्णेरग्रेव आरोपितम् च भारु राचम्बदशक्तिम् मे अस्य गुहाहितमुपनिग्वदन्ति यदुश्रिया नाम पवारी भव्रन् पादिप्रियम् भृगो अग्रहम् पदम् वेः इदमुत्यन्मही महामनी कम् यदुश्रिया स च तपूर्व्यङ्गोः तस्य पदे अधिरीर्जानम् गुहारघुष्यद्रघुयद्विवेद अधद्युदानः पित्रो सतासामनुतगुभ्यम् चारुकृष्णेः मातुष्पदे परमे अन्तिषद्गोर्विष्णः स्वोतिषः प्रजातस्य जिह्वा ऋतम् वोचे नमसा पृच्छमानस्तभाससा जातवेदो यदीदम् त्वमस्य क्षायसि यद्ध विश्वम् दिविजद्रवीणम् यत्पृथिव्याम् किम् ना अस्य द्रवीणम् कद्धरत्रम् विनो वोचो जातवेदश्चिकित्वान् गुहाध्वनः परमम् यन्नो अस्य रेगोपतनम् ननीदाना अगन्म कार्यादा मजुना कद्ध वाममच्छागमेव रघवो न वाजम् कदा नो देवीरमृतस्य पत्नी सूरो वह्नेन तदनन्नुषासाः निरेण वचसा फल्वेन प्रतीत्येन दधुना कृपासाः अधाते अग्ने किमिहावदञ्चनायुधास आसदासजन्ता अस्य श्रिये स विधानस्य वृष्णोपसोरणीकन्दमारुरोच सद्वसानः सुदृशीकरूपः क्षितिर्न राजा पूर्वारो अद्योत् ऊर्ध्वभूषुणो अध्वरस्य होतरग्ने तिष्ठ देवता ताजीयान् त्वम् हि विश्वमभ्यसिमन्मप्रभेदसश्चित्तिरसि मनीषाम् अमूरोहोतान्यसादिभिक्ष्मा अग्निर्मन्त्रो विदधेषु प्रचेताः ऊर्ध्वम् भानम् स विदेवासेन्नेदेव धूमम् स्तभाजतु पद्याम् यदा सूजूर्णीरातिनी धृताची प्रदक्षिणिदेवतादिपुराणः स्वर्णभजानाक्रः पश्वो अनक्ति सुधीतः सुमेकाः स्तीर्णे बर्हिषि समिधाने अग्ना सूर्ध्वो अध्वर्युर्जुषाणो अस्तात् पर्यग्निः पशुपानहोता त्रिभिष्ट्ये प्रतिवपुराणः परेत्मनामिदद्रूरे दिहोताग्निर्मन्द्रो मधुपचारुता वा द्रवणङ्गस्य वाजिनो न शोकाभयम् ते विश्वाभुवनायदभ्राट् भद्रा ते अग्ने स्वनैव सन्दृघोरस्य सरोगिषूणस्य चारुः न यत्ते शोचिस्तमसावरणम् तनद्भस्मानस्तन्वीरे बाधुः न यस्य साधुर्जनीतो न वारिणमातराः पितरानुचि दृष्टौ अथा मित्रो न सुधीकः पापको निर्दीलायमानुषीषु भिक्षु न निर्जम् पञ्चदीजनम् समवसा नास्वसारो अग्निम् मानुषीषु भिक्षु उषर्बुधमसर्जो ओनदन्तम् शुक्रम् श्वासम् परसम्न दिग्मम् तवत्ये अग्ने हरितो घृतस्नारोहीतास ऋज्वम् च स्वञ्चाः अरुषासो वृषणरुजमुष्काः देवतादिमह्वन्तदस्माः ये हत्ये ते सहमाना अजासस्त्वेषासो अग्ने अर्चयश्चरन्ति सेनासो न तु वसनासो अर्थम् तु विश्वनसो मारुतम् न श्रद्धाः अकारिब्रह्म सविधानतुभ्यम् संसात्युक्थम् यजते व्यूधाः होदारमग्निम् मनुषो निषेदुर्नमस्यन्त भुषिजः संसमायोः अयमिह प्रथमोधायिधातृभिर्होता यजिष्ठो अध्वरेष्वीड्याः यमप्रवानो भृगोविर्विचर्मणेषु चित्रम् बिभ्वम् विषेवीषे अग्ने कदा च आरुणद्भुवद्देवस्य चेतनम् अधाहित्वा जगृभ्यरेवर्तासो भिक्ष्वीड्यम् ऋतावानम् विचेतसम् पश्यन्तोद्यामी वस्तृभिः विश्वे रामध्वराणाम् हस्कर्तारम् दमे आशुम् दूतम् विवस्वतो विश्वायश्चर्षणीरभि आरभ्रः केतुमाजवो भृगबाणम् विषेवीषे तमीम् गोतारमानुषश्चीरित्वाम् संनिषेधिरे रण्वम् पावकसोचिदम् यजिष्ठम् सप्तधामभिः संसस्वदेषु मादृषु वराभीतमश्रितम् चित्रम् सन्तम् गुहाहितम् सुवेदम् गोचिदर्थिनम् सहस्य यद्वियुदासस्मिन्मूधम् कृतस्य धामन्नयम् तदेवाः महाग्निर्नमसा रातहौ व्यो मेरध्वराजसदमि धृता वा मेरध्वरस्य दूत्यानि विद्वानुभे अन्तारोदसी सञ्चिकित्वान् दूतयीयसे प्रतिव पुराणो विदुष्टरो दिव आरोधनानि कृष्णन्तये मनुषतः पुरोभाश्च हृष्ट्वा अर्चर्वपूषामि देकम् यदब्रवीता तथा देह गर्भम् सद्यश्चिज्जातो भवसि दूतः सद्यो जातस्य ददृशा नमोजो यदस्य वातो अनुपाति शोचिः वृणक्ति जिग्मामदशेषु जिह्वाम् शिराजिगन्नादयते विजम्भैः त्रिषु जगन्नाः त्रिषु महामवक्ष त्रिषुम् दूतम् कृणुते यह्वो अग्निः वातस्य मेलिम् सजते निजूर्वम् नासुम् न वायते हिन्वे अर्वा दूतम् भो विश्ववेदनम् हव्यवाहममर्त्यम् यजिष्ठमृञ्जसे गिरा स हि वेदापसूधितिम् महा आरोधनम् दिवः स देवाङ्गेह वक्षति स वेददेव आनमम् देवाङ्गृतायते दमे दातिप्रियाणि चिद्वसु सहो दासे दूत्यम् चिकित्वा अन्तरीयते विद्वान् आरोधनम् दिवः ये स्यामये अग्नये ददासुर्हव्यदादिभिः यैमुष्यम् तयिन्धते ते राजते सुवीर्यैः स सवाम् सोऽविशृण्विरे ये अग्नदधिरे दुवाः अस्मे राजो दिवे दिवे सञ्चरन्तु पुरस्पृहाः अस्मे वाजा सगीरताम् सविप्रश्चर्षणीनाम् समसा मानुषाणाम् अधिक्षिप्रेव विद्यति अग्ने मृळमहासि यजीमादे वयुञ्जनम् येथ बर्हिरासदम् समानुषेषु दुर्लभो भिक्षु प्रावीरमर्त्यः दूतो विश्वेषाम् भुवत् स सद्मपरिणीयते होता मन्त्रोदिविष्टिषु उपतवोतारिषीदति पुरग्ना अग्निरध्वरभुतो गृहपतिर्दमे उत ब्रह्माणिषीदति मे शिष्यध्वरीयतामुपभक्ता जनानाम् हव्या च मानुषाणाम् वेषीध्वस्य दूत्या अञ्जस्य जुजोषो अध्वरम् हव्यम् वर्तस्य वोढवे अस्माकम् जोष्यध्वरमस्माकम् यज्ञमन्दिरः अस्माकम् शृणुधीहवम् हरीते दुर्लभो रथोऽस्माङ्गस्नोतु विश्वताः येन रक्षसि दासुषाः अग्नेतमद्या स्वम् न स्तोमैः क्रतुम् न भद्रम् हृदि स्पृशम् हृध्यामातवो हैः अदाह्यग्ने क्रतोर्भद्रस्य दक्षस्य साधोः रथेर्वृतस्य बृहतो बभूथ येभिर्नो अर्गैर्भवानो अर्वाम् स्वा अर्णज्योतिः अग्ने विश्वेभिः सुमना अनीकैः आभिष्टे अद्यगेर्भिर्घृणन्तोऽग्नेदासेव प्रते दिवो नस्तनयन्ति सुष्माः तपस्वादिष्टाग्ने सन्दृष्टिरिदा चिदन्नगिदा चिदग्रोः श्रिये रुक्मो नरोचत उपाके घृतम् न भूतम् तनूररेपाश्रुचिरण्यम् तत्ते रुक्मो नरोचत स्वधावः घृतम् चिद्भिष्मासने विद्वेषोऽग्नजिनोषिवर्तात् यथा यजमानादृतावः शिवानः सख्या सन्दुभ्रात्राग्नेः देवेषु जुष्मे स नो नाभिः सदने सस्मिन्नूधन् भद्रन्ते अग्ने सह सिन्ननीकमुपाक आरोचते सूर्यस्य दृशदृशे नक्तया चिदरोक्षितम् दृश आरूपे अह्नम् ऋषाह्यग्ने गृणते मनीषाम् खम् वेप साधु विजातस्तवानः विश्वेभिर्यद्भावनः शुक्रदेवैस्तन्नोरास्मसुमहो भूरिमन्म सुतरग्ने काव्यास्त्वन्मनीषास्त्वदुःखा जायन्ते राध्यानि सुदे जिद्रवीणम् वीरपेशा इच्छाधीये धातुषेमत्याय त्वद्वाजीवाजम्भरो विहाय अभिष्टिकृध्यायते सत्यसुष्मः त्वद्रयैर्देवजूतोमजो भस्त्वदासुर्जोजुवाग्ने अर्वा त्वामग्ने प्रथमम् देवयन्तो देवम् मर्ता अमृतमन्त्रजिह्वम् देशोजुधमामि वासन्ति धीभिर्दमो न सङ्गृहपतिममूनाम् आरे अस्मदमतिमारे अम्भ आरे विश्वाहम् दुर्मतिन्यन्निपासि दोषा शिवस्य हसस्सूनो अग्नेयम् देव आचिस्सजासे स्वस्ति यस्तामग्नजिनधते यदस्रग्रस्ते अन्नम् गृणभत्सस्मिन्नहन् ससद्युम्नैरभ्यस्तप्रसक्षत्तवक्रत्वादातवेदश्चिकित्वान् यद्ध्वम् यस्ते जभरच्छस्रमाणो महो अग्ने अनीकमास पर्यन् स जीधानः प्रति दोषामुषा सम्पुष्यम् रजम् स च ते घ्नमित्रान् अग्निरीशे बृहतः क्षत्रियस्याग्निर्वाजस्य परमस्य राजः तथाधिरत्नम् विधते जविष्ठो व्यारुषङ्मत्याय स्वधावान् यच्चिद्धिते पुरुषत्राय विष्टादित्यभिश्च कृमा कच्चिदागाः कृधेष्वा अस्मान् रतिरणा गान्व्येनाम् शिशिस्रथो विश्वागग्ने महश्चेदग्नयेन सो अभिगभूर्वाद्देवानामुतमर्त्यानाम् माते सखाय सदमित्रेषा भयच्छातोकायतनयाय संयोः यथा हत्यद्वसवो गौर्यम् यत्पदिषितामुञ्चताय जत्राः येवोष्वा अस्मन्मुञ्चताव्यम् हत्प्रदार्यग्ने प्रतरन्नायुः प्रत्यग्निरुडसामग्रामख्यद्विभादीनाम् सुमनारत्नधेयम् यादमश्विना सुकृतो दुरो नमुत्सूर्यो ज्योतिषा देवयेति ऊर्ध्वम् भानुम् सविता देवो अस्रे द्रप्सम् स विध्वर्गविषो न सत्त्वा अनुव्रतम् वरुणो यन्ति मित्रो यत्सूर्यम् दिव्यारोहयन्ति पन्तमासे विवृचे ध्रुवक्षे वा अनावश्यन्तो अर्थम् तम् सूर्यम् हरितः सप्त जह्वीष्मसम् विश्वस्य जगतो वहन्ति बहिष्ठेभिर्विहरण्यासितम् धूमभव्यजन्नसीतम् देववस्म न विद्वतो रश्वयः सूर्यस्य धर्मे वा धुस्तमो अप्स्वा अन्तः नायतो अनिबद्धः कथायन्यम् वत्तानो वा बध्यतेन कजाजादिस्वधया कोददर्शदिवस्कम्भः समृतपादिनाकम् प्रत्यग्निरुषसोः जातवेदा अक्षद्देवो रोचमानामहोभिः आहत्योरुगायारथेनेवम् यज्ञमुपनो जातमच्छ ऊर्ध्वम् गेतुम् सविता देवो अस्येज्योतिर्विश्वस्मै भुवनाय गृह्वन् आप्राज्यावा पृथिवी अन्तरिक्षम् विसूर्यो रश्मिभिश्चेकीतानः आवहन्त्यरुणेर्ज्योतिषागान्मही चित्रा रश्मिभिश्चेकीताना प्रबोधयन्ति सुपिताय देव्योषायीयते सुयुजारथेन आवाम् बहिष्ठा जिहते वहन्तु रथा अश्वासभुषसोऽव्योष्टौ इमेवाम् मधुपेया यशो वा अस्मिन् यज्ञे वृषणामादयेथाम् अनायतो अनिबद्धः कथायन्यम् वक्ता नो वा पद्यतेन कयाजातिस्वधया कोददर्शदिवस्कम्भस्वमृतपादिनाकम् अग्निर्होता नो अध्वरे भाजी सन्परिणीयते देवो देवेषु यज्ञियाः परित्रिभिष्ट्यध्वरम् जात्यग्निरथीरिह आदेवेषु प्रयोदधत् परिवाजपतिः कविरग्निर्हव्यान्यक्रमीत् दधद्रत्नानि दासुषे अयम् यसृञ्जये पुरो देव भाते स विध्यते युवा मित्रदम्भनः अस्य घा वीरजीवतोऽग्नेरीशीतमर्त्याः ऋग्मजम्भस्य मेरुणाः कमर्वन्तम् न सा न शिमर्षन्न दिवः शिशुम् मर्मृज्यन्ते दिवे दिवे बोधद्यन्मा हरिभ्याम् कुमारः साह देव्यः अच्छानहूत उदरम् उदत्याय जता हरी कुमारात् साह देव्यात् प्रयाता सद्यादे येष वाम् देवावश्विना कुमारः साह देव्यः दीर्घायुरस्तु सोमकः तम् युवम् देहेवावश्विना कुमारम् साह देव्यम् दीर्घायुषम् कृणोतन आसत्यो यातु मघवान् विजीषीद्रवन्तस्य हरय उपानः तस्माजिदम्भस्वषुमासुदक्षामिहाभिर्भित्वम् कारते गृह्णानः अवस्य सूराध्वनो नान्तेऽस्मिन्नो अद्य सवने वन्दध्यैः संसाहत्युक्तमुसने एव वेधाश्चिदुषे असुर्या यमन्म कविर्न निन्यम् विदधा निसाधन्वृषायस्येकम् विपालो अर्चात् जनः सप्तकारूनह्ना चिच्चक्रर्भजुना गृह्णन्ताः स्वार्यज्ञेति सुदृशीकमर्त्यैर्महिज्योतिरुचर्यद्धवस्तोः अन्धातमाम् सिदुधीता विचक्षेन्द्रभ्यश्चकारनृतमो अभीष्टौ क्षयिन्द्रो अमितमृजेषु उभे आवप्रौरोदसीमहित्वा अदश्चिदस्य महिमा विरेच्यभियो विश्वा भुवना बभूव विश्वायक्रोलर्यानि विद्वानपोरीरे च सखीभिर्निकामैः अस्मानञ्चिद्येभिर्वचोभिर्भजम् गोमन्दमुषिजो विवौरुः अवो वृत्रम् बव्रिवाम् सम्पराहन् प्रावत्ते वाजम् पृथिवी सचेताः रार्णाम् च समुद्रियाण्येनाः पतिर्भवन् सूरधृष्णो अवो यदद्रिम् गुरुः तदर्द्राविर्भूवत्सरमा पूर्व्यन्ते सरो नेता वाजमादर्शि भूरिम् गोत्रारुजन्नङ्गीरोभिर्गृणानः अच्छा कविन्द्रमणोग अभिष्टौ स्वर्षादामघपन्नाधमानम् ऊतिभिस्तमीषणोद्युम्नहूतौ निमायाभानब्रह्मादस्यूरत्त आदस्युघ्नामनसा जाह्यस्तम् भुवत्ते कुत्सः सख्ये निकामः ेयोदम् स्वरूपाविवाहम् चिकित्सधृतसिद्धारीः यासिकुत्सेन सरथमपश्यस्तोदो वातस्य हर्योरीहाणः निद्रावाजन्नगध्यञ्जयोषम् कविर्यदहन्पार्याय भूषात् उत्सायष्ट्रमधुरन्दिमर्हेः प्रभित्वे अन्नः कुजवम् सहस्राः सद्योदस्योन्प्रवृणगुत्सेन प्रसूरश्चक्रम् बृहतादभीके त्वम् विप्रम् मृगजम् सुशुभाम् स मृजिष्वने वैदधिनाय रन्धीः पञ्चासः कृष्णानि वपत्सहस्रात् कन्दपुरो जरिमा विदर्दः सूरा उपाके तन्वा अन्धा नो वियत्तेजेत्यमृतस्य वर्पाः भृगो न हस्तीतमीषेमुदानः सिंहो न भीम आयुधानि बिभ्रत् इन्द्रम् कामा वसूयन्तो अग्मान् सर्मेलेन समाने च कानाः श्रवस्य वश्य समाना स मुक्थैरोको नृशीरपुष्टिः तमेद्वजिन्द्रम् सुभवम् भुवे मयस्ता चकारनर्याः पुरूणि यो मावते चरित्रे गध्यम् चिन्मक्षूवाजम्भराति स्वार्हराधाः यज्ञायदन्तरसनिपदादिकस्मिञ्चिच्छूरमुखके जनानाम् घोराजदर्यसमृतिर्भवात्यधस्मानस्तन्वो बोधिगोपाः भुवो विदा वामदेवस्य धीनाम् भुवः सखा भृको वाज सातौ वामनः प्रमादिमाजगन्मो नृशंसो चरित्रे विश्वधस्याः येभिर्नृभिरिन्द्रत्वाजभिष्टामघवद्धर्मघवन् विश्व आजौ जावो नद्युम्नैरभिसन्तो अर्यः क्षपो मा देव सरदश्च पूर्वीः ये वेदिन्द्राय वृषभाय वृष्णे ब्रह्मा कर्म मृगवो नरथम् नो जिज्यथा नः सख्या विजोषदसन्न उग्रोः विदातनूपाः न नोष्टुदयम् रणोग्रेणानयिषम् चरित्रे नद्यो ओनपीपेः अकारिते हरिभो ब्रह्मणव्यम् धियास्यामरच्छः सदासाः त्वम् महाम् इन्द्रतुभ्यम् रक्षाणम् क्षत्रम् ब्रह्मणामन्यदद्योः त्वम् रत्नम् सवसा जघन्वान् शिरसिन्धोम् ग्रहीणा जग्रसानान् तवद्विषो जनीमन्वेज दद्यौरे दद्भूमिर्भियसा स्वस्य मन्योः गृहायम् त शुभ्वा अपर्वदासार्दम् धन्वानि शरयम् तापाः भिरग्निम् सवसा वज्रविष्णन्वा विष्णन्वानः सहसा नभोजाः वधीवृत्तम् वज्रेण मन्दसानः सरन्नापोजवसा हतवृष्णीः सुवीरस्तेजनितामन्यदद्योलिङ्गस्य कर्ता स्वपस्तमोऽभूत् यजीम् जजानः स्वर्यम् सुभज्रमनवच्छुतम् सदसो न भूम यजेकयच्चामया दिक्प्रभूमा राजा कृष्णीनाम् पूरहूत इन्द्राः सत्यमे नमन विश्वे मदन्ति राजिम् देवस्य गृणतो मघोनाः सत्रा सोमाः अभवन्नस्य विश्वे सत्रामदासो बृहतो मदिष्ठाः सत्राभवो वसुपतिर्वसूनाम् दत्रे विश्वा अधिता इन्द्रकृष्टीः त्वमध प्रथमम् जायमानो मे विश्वा अधिता इन्द्रकृष्टीः तम् प्रति प्रपद आशया नम हिंवज्रे नमघवन्विदृष्टः सत्राहनम् दाधृषिम् त्वम् रमिन्द्रम् महामापानम् वृषभम् सुभद्रम् हन्तायो भृत्नम् सनीतो तवाजम् दाताः मघानि मघवाः सुराधाः अयम् मृतश्चादयते समीचीर्य आजिषु मघवाः शृण्वलेकाः अयम् वाजम् भरतियम् सरोष्यस्य प्रियासः सख्ये स्याम अयम् शृण्वे अधजयम् नुरघ्नन्नयमुतः प्रहृणते युधागाः यदा सत्यम् क्रीणुते मन्यमिन्द्रो विश्वम् दृढम् भजतये जस्मात् समिन्द्रोगाजयः संहिरण्यालमस्विजा मघवायोः पूर्वीः एभिर्नृभिर्नृतामोहस्य सागैराजो विभक्ता सम्भरश्चवस्वाः कियत्स्विन्द्रो अध्येति मातुः कियत्पितुर्जनितुर्यो जजान यो अस्य सुष्मम् मुहुकैर्यत्ति मातो न दूतस्तनयद्भिरभ्रैः क्षीयन्तम् त्वमक्षीयन्तम् कृणोति यत्ति रेणुम् मघवाः समूहम् जलरसनीवान्युभज्यौ ऋतस्तोतारम् मघवावसौधात् अयम् चक्रमेष नत्सूर्यस्यन्येत संवीरमत्सृमाणम् आकृष्णयीम् जुगुदानो जीघर्ति त्वजो बुद्धेरजसो अस्य यो नौ अधिज्ञाम् यजमानो न होताः गव्यन्त इन्द्रम् सख्याय विप्राः अश्वायन्तो वृषणम् वाजयन्तः जनीयन्तो जनितामक्षीतो दिवाच्यावयामो वतेन कोशम् त्रातानो बोधितदृशान आभिराभिख्यातावद्भिदा सोम्यानाम् सखा पिता पितृदापितॄणाम् कर्ते मुलोकमुसदेव योधाः सखीयताम पिता बोधि सखा कृणानयन्दस्तु वदेव योधाः वयम् ख्याते च कृमा सबाध आभिस्समेभिर्महयन्त इन्द्र श्रुत इन्द्रो मघवायद्ध वृत्रा भूरेण्येको अप्रतिनिहन्ति अस्य प्रियोजरिनायस्य धर्मन्नकिर्देवा बालयम् तेन मर्ताः एवा न इन्द्रो मघवा विरप्सीकरः सत्याचर्षणी धृत नर्वा त्वम् राजाजनुषाम् ते यस्मे अधिश्रवो माहीनम् यज्जरित्रे नो श्रुत इन्द्रनो गृणानयिषम् जरित्रे न ज्यो ओ न पीबे अकारिते हरिवो ब्रह्मणव्यम् ध्यास्यामरथ्य सदा